सर्वेषां संस्कृतकक्षायां स्वागतम्। प्रथमम् अहम् एकं सुभाषितं श्रावयामि। न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्। इत्युक्ते विद्याधनं सर्वधनप्रधानम्, इत्युक्ते विद्याधनम् उत्कृष्टं, श्रेष्ठम्, अग्रगण्यम् अपि च वरिष्ठम्। एका सूक्तिः अस्ति, भारतस्य प्रतिष्ठे द्वे, संस्कृतं संस्कृतिस्तथा। इत्युक्ते भारतस्य प्रतिष्ठा संस्कृतम् अपि च भारतीयसंस्कृतिः। तदर्थमेव वयम् अत्र संस्कृतं पठामः अद्य। विद्याधनं सर्वधनप्रधानम् इति एतत् सुभाषितं वदति। अनन्तरं वयं गतसप्ताहे आम् न अनयोः पदयोः उपयोगं कदा भवति इत्यस्मिन् विषये किञ्चित् वयं ज्ञातवन्तः। अद्य किं कुर्मः इत्युक्ते, श्रीरम्या भगिनी भवती वक्तुं शक्नोति वा गृहपाठः कः अथवा पुटसङ्ख्या का? अस्माकं पुटसङ्ख्या का?
आं भगिनि, गृहपाठस्य पुटसङ्ख्या षट्।
षट् इति वदामः, षष्ठे पुटे, षष्ठे पुटे स्मः वयम्। अधुना वयं किञ्चित् गृहपाठविषये किञ्चित् पश्याम। इदानीं पर्यन्तं वयं आम् नाम् आम् न इति पदद्वयं जानीमः। षष्ठे पुटे किम् अस्ति इति एकवारं पश्येम। अत्र हस्मक् महोदय, भवान् वदति वा षष्ठे पुटे किम् अस्ति?
दर्पणः,
उपरि उपरितन महोदय, अत्र उपरितनभागे एका शीर्षिका अस्ति, शीर्षिका
शीर्षिका ओके, नित्योपयोगिनी वस्तुनि,
अत्र अस्थगयतु महोदय, नित्योपयोगीनि वस्तूनि इति अस्ति अत्र। अत्र वस्तूनि सन्ति, कीदृशवस्तूनि सन्ति, विच् कैण्ड् आफ् थिङ्ग्स्, कीदृशवस्तूनि
यु आर् आस्किङ्ग् ए क्वेश्चन्, ऐ शुड् रिप्लै टु इट्?
या, ऐ एम् जस्ट् एक्स्प्लेनिङ्ग्। अत्र विंशतिः यदि वयं गणनां कुर्मः चेत् अत्र विंशतिः इत्युक्ते 20 वस्तूनि सन्ति। कीदृशवस्तूनि इत्युक्ते विच् कैण्ड् आफ् थिङ्ग्स् इत्युक्ते नित्योपयोगीनि वस्तूनि सन्ति। अत्र नित्योपयोगीनि इति पदमस्ति, नित्योपयोगीनि इति पदं विशेषणरूपेण प्रयुक्तमस्ति। अत्र वस्तूनि सन्ति, परन्तु कीदृशवस्तूनि सन्ति इति प्रश्नं पृच्छामश्चेत् तस्य उत्तरं किं भवति चेत्, नित्योपयोगीनि वस्तूनि इत्युक्ते एतेषां वस्तूनाम् उपयोगः अस्माकं कृते प्रतिदिनम् अथवा नित्यं तेषाम् उपयोगं कुर्मः। एतेषां वस्तूनाम् उपयोगः सर्वदा अथवा प्रतिदिनं तेषाम् उपयोगः भवति, अतः नित्योपयोगीनि वस्तूनि इति वदामः। अनन्तरम् अत्र यदि वयं गणनां कुर्मः चेत् अत्र विंशतिः वस्तूनि सन्ति। गतसप्ताहे वयं एषः सः एषा सा एतत् तत् इति सर्वनामपदानि उपयुज्य वाक्यानि रचितवन्तः। अत्रापि अधुना वयं तदेव अभ्यासः कुर्मः, भवान् करोतु। अत्र एकम् एकं पदं स्वीकृत्य त्रीणि वाक्यानि रचयितुं शक्नुमः. प्रथमं चित्रम् अहं पृच्छामि, एषः कः? वदतु, उत्तरं वदतु.
एषः दर्पणः.
एषः दर्पणः. अहम् अन्यं प्रश्नं पृच्छामि, एषः करदीपः वा?
न, एषः दर्पणः.
एषः दर्पणः. एषः भावचित्रं वा?
न, एषः भावचित्रं न.
एषः जवनिका वा? एषा जवनिका वा?
न, एषः जवनिका न.
एषः कः?
एषः दर्पणः.
उत्तमम्. एषः दर्पणः. दर्पणः यदि अस्माकं पार्श्वे अस्ति चेत् एषः दर्पणः इति वदामः. यदि दर्पणः दूरे अस्ति चेत्
सः दर्पणः.
उत्तमम्. अन्यानि पदानि अपि उपयुज्य, सर्वनामपदानि उपयुज्य शीघ्रं करोतु. एकवारं पुनस्मरणं भवति. मञ्चः.
You want me to continue in the second one, right?
महोदय.
एषः मञ्चः, सः मञ्चः, एषः कः? राइट.
प्रथमतया एषः कः?
एषः कः? एषः मञ्चः,
सः कः?
सः मञ्चः.
तदा एव करोतु.
Sorry, I didn't get that.
In the same way, continue with
that. Okay, okay. Yeah. So, Eshah kaha, Eshah vidyudipaha. Eshah karadipaha va na. Eshah vidyudipaha.
Saha kaha?
Saha vidyudipaha.
तथापि वयं कर्तुं शक्नुमः. चत्वारि पदमपि उपयुज्य वाक्यं रचयतु.
एषः कः? एषः करदीपः. स कः? सः करदीपः. एषः विद्युदीपः वा? न, एषः करदीपः.
उत्तमम्. उत्तमम्. अनन्तरं मण्डपः तदपि करोतु.
एषः कः? एषः मण्डपः. सः कः? सः मण्डपः. एषः करदीपः वा? न, एषः मण्डपः.
उत्तमम्. अनन्तरम्
what do you say for neuter gender? Eshah, Esa, and Itap, no, Itat.
Uchitam, Uchita Sarvanama Padam, Yojitva Vadatu.
Sorry, I didn't get that.
Uchita Anyanam, Sarvanama Padam, Ichukte Tatra, Padatranam, Itapadamasti. नपुंसकलिङ्गपदानां कृते
नपुंसकलिङ्गम् एतत् कः? एतत् किं?
स्पष्टतया वदतु पुनः एकवारं वदतु.
ऐ एम् फ्रेमिङ्ग् ए क्वेश्चन्. एतत् किम्? एतत् पादत्राणम्. एतत् पादत्राणं. सः किं? न, तत् किं? रैट्. तत् किं? रैट्. तत् किं? तत् पादत्राणं. नो, सः, या, तत् तत् पादत्राणं. रैट्.
अनन्तरं
नेक्स्ट् वन् कङ्कटं. यु वाण्ट् मी टु रीड् दट्?
कङ्कटं.
एतत् किम् एतत् किं रैट् इट्
आं महोदय वदतु
एतत् एतत् कङ्कटं तत् सारि तत् तत् तद् तत् ओ तद् वट् डु यु से
तत् तत्
तत् तत् कङ्कटं
अत्र पश्यतु महोदय कङ्कतं कङ्कतं
कङ्कतं
तत्र तकारः अस्ति न तु तकारः कङ्कतं
कङ्कतं कङ्कतं
अनन्तरम् अन्यत् पदम्
किम् एतत् भावचित्रम् एतत् भावचित्रं तद् भावचित्रं तत् भावचित्रम्
उत्तमम् उत्तमं महोदय धन्यवादः अनन्तरं राजीव् सिङ्ग् महोदय
एतत् किम् एतत् सीवनयन्त्रं
सीवनयन्त्रं
सीवनयन्त्रम्
उत्तमं
तत् किं तत् सीवनयन्त्रम्
अनन्तरम्
एतत् किम् एतत् वातायनं तत् किं तत् वातायनम्
उत्तमम् अनन्तरम्
एतत् नो नो सोरि सा किं
पुनः चिन्तयतु महोदय अत्र पश्यतु अत्र पदं किम्
एषा किम् एषा की
पुनः चिन्तयतु
एषा का
उत्तमम्
एषा का
एषा
जवनिका सा जवनिका
अनन्तरम्
एषा का एषा यानपेटिका
एषा यानपेटिका
एषा यानपेटिका
किमर्थम् अत्र पश्यतु महोदय यदि यानपेटिका इति वदामश्चेत् तत्र केवलं नकारः एव तत्र केवलं नकारः अस्ति चेत् यानपेटिका इति वदामः परन्तु अत्र न इति अक्षरमस्ति न इति अक्षरमस्ति तदर्थं स्पष्टतया वक्तव्यं यानपेटिका अत्र उत्तमम् अनन्तरं करोतु
सा का सा
निधानिका
एषा का एषा निधानिका एषा का एषा द्विचक्रिका सा का सा द्विचक्रिका एषा का एषा पञ्चालिका सा का सा पञ्चालिका
अत्र पश्यतु महोदय पाञ्चालिका पाञ्चालिका
पाञ्चालिका पाञ्चालिका
उत्तमम् अनन्तरम्
एषा का एषा मापिका सा का सा मापिका
सा मापिका. उत्तमम् उत्तमं महोदय, धन्यवादः. लक्ष्मी भगिनी भवती करोति वा अन्तिमम् अन्तिमचत्वारि पदानि?
एषा का, एषा माला का,
सा का,
सा का, सा माला, एषा का, एषा पुष्पदानि,
पुष्पाधानि, तत्र
पुष्पाधानि,
पुष्पाधानि,
पुष्पाधानि, सा का, सा पुष्पाधानि, एषा का, एषा दूरवाणी,
एषा दूरवाणी. अहं पृच्छामि, एषा चरवाणी वा? वदतु.
न, एषा चरवाणी न,
एषा का,
एषा दूरवाणी,
एषा दूरवाणी,
एषा दूरवाणी.
अहं पुनः पृच्छामि, एषा दूरवाणी वा?
न, एषा दूरवाणी न.
अत्र अहं दूरवाणीम् उद्दिश्य एव पृच्छामि.
एषा दूरवाणी,
एषा दूरवाणी. अन्तिमं करोतु.
एषा कर्तरी,
एषा कर्तरी वा? एषा का,
एषा कर्तरी,
एषा
कर्तरी.
यदि कर्तरी दूरे अस्ति चेत् सा कर्तरी वा?
सा आम, सा कर्तरी.
उत्तमम् उत्तमम्. अधुना वयं किं कुर्मः इत्युक्ते, एतेषां वस्तूनाम् उपयोगः कदा भवति, कुत्र तेषाम् उपयोगं कुर्मः, तस्य उपयोगः कः इति अधुना किञ्चित् पश्येम. प्रथमं चित्रमस्ति दर्पणः. दर्पणः इति पदम् उपयुज्य अन्यं वाक्यम्, अन्यत् वाक्यं भवती रचयितुं शक्नोति वा? अन्यत् वाक्यं वदतु भगिनि. एषा सा, अपि च एषः सः कः इति पदान् उपयुज्य वयं वाक्यानि रचितवन्तः. तत्तु वयं जानीमः एव, परन्तु अहं पृच्छामि, दर्पणः इति पदम् उपयुज्य कोऽपि अन्यत् नूतनं वाक्यं रचयितुं शक्नोति चेत् वदन्तु, कः कर्तुमिच्छति? वदतु भगिनि.
एषः दर्पणः अस्ति,
एषः दर्पणः अस्ति. अस्तु, नूतनं वाक्यम् एषः इति न, केवलं अहम् एकं वाक्यं वदामि, भवती अपि किञ्चित् चिन्तयतु, अनन्तरं वदतु. साधारणतया वयं दर्पणम् उपयुज्य किं कुर्मः इत्युक्ते, दर्पणस्य प्रयोजनं किं कुर्मः? किं कुर्मः? किं कुर्मः इत्युक्ते, भवती वदति वा?
ऐ डोण्ट् नो.
शृङ्गार,
वदतु महोदय. कोऽपि वदति वा दर्पणः इति पदम् उपयुज्य अन्यत् नूतनं वाक्यं कर्तुमिच्छन्ति चेत् कुर्वन्तु. Do you want to try, any of you? You need to create a sentence using darpanah. Ekam vakyam vadami. Sadharanatah vayam kim kurmaha? Darpanasya puratah upavishya aabhushanani dharamaha. Darpanasya puratah sthitva kesaprasadhanam kurmaha. Mahilaha darpanasya puratah upavishya अलं कुर्वन्ति. तथा दर्पणः इत्युक्ते तस्य पुरतः उपविश्य वयं कानिचन कार्याणि साधारणतया कुर्मः. अस्मिन् विषये एव अहम् एकं वक्तुम् इच्छामि. यदि भवन्तः जानन्ति चेत् आदिशङ्करः नाम्ना, आदिशङ्करः दक्षिणामूर्तिस्तोत्रं नाम्ना एकं स्तोत्रं विरचितवान्. तस्मिन् एकः उत्तमः श्लोकः अस्ति. तस्मिन् श्लोके दर्पणः इति पदस्य उपयोगं कृतवान् सः. श्लोकः अस्ति, विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतम् इति आदिशङ्करः वदति. विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतम् इति तथा आगच्छति सः श्लोकः. परन्तु उत्तमः श्लोकः. यदि भवन्तः ज्ञातुमिच्छन्ति चेत् किञ्चित् गूगल् कृत्वा ज्ञातुं शक्नुवन्ति. इफ् यु वाण्ट् टु नो अबौट् दट् श्लोक, यु केन् गूगल् इट् अण्ड् यु केन् गेट् इट्. दट् इस् अ वण्डर्फुल् श्लोक रिटन् बै आदिशङ्कर. हि सेस् विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं, तथा अस्ति श्लोकम्. अनन्तरम् अत्र मञ्चः, मञ्चः इति पदं स्वीकृत्य किञ्चित् नूतनं वाक्यं रचयामः. कः करोति? श्रीरम्या भगिनी, भवती कर्तुम् इच्छति वा?
आं भगिनी.
मञ्चः वदतु.
मञ्चः उपयुज्य वयं शयनं करोति.
वयम् इति पदस्य उपयोगं कृत्वा वदामश्चेत् वयं कुर्मः शयनं.
मञ्चः उपयुज्य वयं शयनं कुर्मः.
इत्युक्ते मञ्चे निद्रां कुर्मः रात्रिवेलायां. मञ्चे इति सप्तमी विभक्तिः. रात्रिवेलायां मञ्चे निद्रां कुर्मः. शिशुः मञ्चे निद्राति. तथा परन्तु अत्र पश्यतु भगिनी, मञ्चः इति पदमस्ति. अत्र लेखनशैलीं पश्यतु. अत्र लेखनशैल्यां वैशिष्ट्यमस्ति. अत्र हौ इट् इस् रिटर्न् जस्ट् अब्सर्व् अत्र. तथा एव लेखनीयम् अत्र. अत्र भवती पश्यति चेत् प्रथमतया चवर्गीय अन्तिमव्यञ्जनं. चवर्गीय अन्तिमव्यञ्जनं किं वदति वा? चवर्गीय अन्तिमव्यञ्जनं न चाछा इणि इति वदामः. अत्र प्रथमतया चवर्गीय अन्तिमव्यञ्जनं लिखित्वा अनन्तरं तत्र चकारः लेखनीयः. तथा एव लेखनीयं. तदेव लेखनशैल्यां वैशिष्ट्यम् अत्र. मञ्चः इति वदामः, तत्र अनुस्वारः अथवा मकारस्य उच्चारणम् अस्ति, परन्तु तत् न लिखामः. केवलं अत्र चवर्गीय अन्तिम अनुनासिकव्यञ्जनं लिखामः, अनन्तरं चकारः लिखामः तत्र. अनन्तरं भवती एव करोतु. विद्युद्दीपः इति पदम् उपयुज्य एकं वाक्यं रचयतु. विद्युद्दीपः.
वयं रात्रिवेलायां विद्युद्दीपे उपयुज्य कार्यं गृहकार्यं कुर्मः.
उत्तमं वाक्यं. रात्रिवेलायां वयं, यदि गृहे अन्धकारः अस्ति तदा विद्युद्दीपं ज्वालयामः. केवलं विद्युद्दीपं ज्वालयामश्चेदेव वयं किमपि कार्यं कर्तुं शक्नुमः. यदि पठनं वा भवतु, किमपि कार्यं, विद्युद्दीपः अस्ति चेदेव वयं पठितुं शक्नुमः. अनन्तरं करदीपः अपि उपयुज्य एकम् अन्यत् वाक्यं रचयतु. प्रयत्नं करोतु.
अहं यानपेटिकस्य करदीपः इङ्ग्लिश्
केवलम् अत्र करदीपः इति पदम् उपयुज्य वदतु. मम यानपेटिकायां करदीपः अस्ति. इत्युक्ते किं? मम यानपेटिकायां करदीपः अस्ति.
I have a torchlight in my suitcase.
उत्तमम् उत्तमं तथा एव. यदि भवत्याः पुत्री, अहम् एकं वाक्यं वक्तुमिच्छामि. यदि भवत्याः पुत्री बहिः क्रीडन्ती अस्ति, बहिः अन्धकारः अस्ति, परन्तु भवती भवत्याः पुत्र्याः अन्वेषणं कर्तुमिच्छति चेत् तदा करदीपं गृहीत्वा बहिः गत्वा पुत्र्याः अन्वेषणं कर्तुं शक्नोति भवती. तथा अनन्तरं मण्डपः.
I can make a sentence on that. Mandapah.
Vajatu Mohadeya. Uttamo.
Vajatu. Mandapah Deva Murti Pratisthapana Karotu.
Mandape. Punaha Vajatu.
Mandapah Deva Murti Pratisthapana Karotu.
Karotu. Prathmatya Pashyatatra. Mandapah. मण्डपः इति पदं नामपदम् अपि च प्रथमाविभक्तौ अस्ति. मण्डपे मण्डपे इति वदामः, अण्ड् इन् द मण्ड् इन् द मण्ड् इन् द मण्डपं. दट्स् वाट् यु वाण्टेड् टु से. मण्डपे
मण्डपे.
सेकेण्ड् द्वितीयं पदं किं स्वामी? पुनः वदतु तदेव वाक्यं.
मण्डपे देवप्रतिष्ठापनं करोतु.
मण्डपे देवप्रतिष्ठापनं करोतु. उत्तमं. प्रतिष्ठापनं करोतु. उत्तमम्. अस्मिन् मण्डपे स्वामिनः मूर्तिः इत्युक्ते ऐडल्. स्वामिनः मूर्तिः अस्ति वा अस्मिन् मण्डपे?
मूर्ति अस्ति
अस्मिन् मण्डपे. मूर्तिः इत्युक्ते ऐडल्. अस्मिन् मण्डपे स्वामिनः मूर्तिः अस्ति वा?
अस्ति.
अस्ति वा अत्र अस्मिन् मण्डपे स्वामिनः मूर्तिः नास्ति?
इन् द पिक्चर् मूर्तिः नास्ति.
मूर्तिः नास्ति अस्मिन् मण्डपे. मूर्तिः नास्ति परन्तु देवस्य प्रतिष्ठापनं कुर्मः. साधारणतया देवालये मण्डपः अस्ति, मण्डपे स्वामिनः मूर्तिः अस्ति. अत्र मूर्तिः नास्ति. अनन्तरम् अत्र मण्डपः इति पदं पश्यतु महोदय. अत्रापि लेखनशैल्यां वैशिष्ट्यमस्ति. अत्र किं किम् अस्ति? अत्र मण्डपः इति पदमस्ति. अत्र टवर्गीय अन्तिमव्यञ्जनं किं वक्तुं शक्नोति वा भवान्? टवर्गीय अन्तिमव्यञ्जनं अण ठ ढ ण इति वदामः. तवर्गी अन्तिमव्यञ्जनं तत्र अणकारः अस्ति, अनन्तरं ड अस्ति, तथा एव लेखनीयं. मण्डपः तत्र अनुस्वारः श्रूयते, परन्तु मूर्धन्य अणकारः अत्र अस्ति, अपि च डकारः अस्ति, ड अस्ति. अत्र पादत्राणम् इति पदमस्ति. पादत्राणम् इत्यस्मिन् पदे न अस्ति, तस्य नाम अस्ति मूर्धन्य णकारः, पादत्राणम्, तस्य नकारस्य नाम अस्ति मूर्धन्य णकारः. अनन्तरम् अत्र यानपेटिका इत्यस्मिन् पदे न अस्ति, केवलं नकारः न अस्ति, तस्य नाम अस्ति दन्त्यनकारः. इत्युक्ते यानपेटिका इत्यस्मिन् पदे दन्त्यनकारः अस्ति, पादत्राणम् इत्यस्मिन् पदे मूर्धन्य णकारः अस्ति. भवानेव करोतु, पादत्राणम् इति पदम् उपयुज्य नूतनं वाक्यं वदतु. प्रयत्नं करोतु महोदय.
I can say a sentence, Lakshmiji, this is Rajiv here.
Vadatu mahodaya, uttamo.
Aham padatranam nutnani asti.
Mama parshve.
Mama padatranam nutana asti.
Mama padatranam. नूतनम् अस्ति, मम पादत्राणं नूतनम् अस्ति.
मम पादत्राणं नूतन अस्ति.
नूतनम् अस्ति, पादत्राणं नपुंसकलिङ्गम्, अतः नूतनं. पादत्राणम् एकवचनं, बहुवचनं किं भवति वदतु महोदय. पादत्राणम् एकवचनं, बहुवचने किं भवति?
पादत्राणम्, I don't know.
पादत्राणानि,
पादत्राणानि.
फलं, फलानि. पादत्राणं, पादत्राणानि.
पादत्राणानि.
अत्र पश्यतु,
मम पादत्राणानि नूतनानि अस्ति.
नूतनानि अन्तिमं पदम्. एकवचने वदामश्चेत् पादत्राणम् अस्ति, बहुवचने वदामश्चेत् पादत्राणानि सन्ति.
मम पादत्राणानि नूतनानि सन्ति.
उत्तमम्, तथा एव. पादत्राणम् इत्युक्ते पादस्य रक्षणं करोति, अथवा पादयोः रक्षणं करोति, तदेव पादत्राणम्. अत्र त्राणम् इति पदमस्ति, त्राणम् इत्युक्ते रक्षणं. साधारणतया परमात्मनः नाम अस्ति आर्तत्राणपरायणः, देवः आर्तत्राणपरायणः इति वदामः. तत्र त्राणम् इत्युक्ते रक्षणं, परमात्मा अस्माकं रक्षणं करोति. अत्र पादत्राणं पादयोः रक्षणं करोति. अन्यत् नाम अस्ति पादरक्षः, पादरक्षा इति अपि वदामः पादत्राणम्. अनन्तरं कङ्कतं, कङ्कतम् इति पदम् उपयुज्य अन्यत् वाक्यं वदतु महोदय. कङ्कतम् अत्रापि लेखनशैल्यां वैशिष्ट्यमस्ति, किञ्चित् परिशीलयन्तु. तथा एव लेखनीयं, कङ्कतं वक्तुं शक्नोति वा? वुड् यु लैक् टु ट्रै यूसिङ्ग् द वर्ड् कङ्कतं? कः करोति? शायिरवळि भगिनी, भवती कर्तुम् इच्छति वा कङ्कतम्?
अहं मम पार्श्वे कङ्कतम् अस्ति.
मम पार्श्वे कङ्कतम् अस्ति. कङ्कतम् उपयुज्य किं कुर्मः?
केशः कङ्कतम् उपयुज्य केशः अलङ्कारं कुर्मः.
उत्तमं. कङ्कतेन केशप्रसाधनम्.
ओके, कङ्कतेन
कङ्कतेन केशप्रसाधनं करोमि.
केशप्रसाधनं
कङ्कतेन कङ्कतम् उपयुज्य केशप्रसाधनं कुर्मः. नित्यं वयं कङ्कतेन केशप्रसाधनं कुर्मः. अनन्तरम् अत्र भावचित्रमस्ति, उत्पेठिकायाः उपरि भावचित्रमस्ति. भावचित्रम् इति पदम् उपयुज्य वदतु.
मम भावचित्रेण मम पुत्रस्य भावचित्रम् अस्ति.
पुनः वदतु. भवत्याः गृहे भावचित्राणि सन्ति वा?
आम्, मम गृहेण भावचित्राणि सन्ति.
मम चित्रे मम गृहे अपि भावचित्राणि सन्ति.
एकं प्रश्नम् अस्ति.
वदतु पश्यतु भगिनि. एकः प्रश्नः अस्ति मम.
एकः प्रश्नः अस्ति. पूर्वकक्षायां यूयं कानिचन पदानि अपि च केचन शब्दः अवदत्. कानिचन अपि केचन भेदः किम्? पदानि स्त्रीलिङ्गं, शब्दः पुंलिङ्गम्. अहम् अवगच्छामि. कानिचन केचन भेदः किम्?
भेदः कः इत्युक्ते अत्र केचन इत्युक्ते कः शब्दस्य कः वयं जानीमः. कः सः? कः एषः? कः इति वदामः, प्रश्नं पृच्छामः. तदा एव कः शब्दस्य बहुवचनरूपं के. के इति पदं बहुवचनरूपं. यदि शब्दः इति पदम् उपयुज्य वयं वाक्यं रचयितुम् इच्छामश्चेत् तदा केचन केचन शब्दाः, केचन केचन मण्डपाः, केचन दर्पणाः, केचन विद्युद्दीपाः इति वदामः. पुंलिङ्गे वदामश्चेत् पुंलिङ्गे बहुवचने वदामश्चेत् केचन विद्युद्दीपाः. यदि नपुंसकलिङ्गे वदामश्चेत् कानिचन पदानि, कानिचन चित्राणि, कानिचन मम गृहे कानिचन भावचित्राणि सन्ति. मम गृहे कानिचन वातायनानि सन्ति. मम गृहे कानिचन पादत्राणानि सन्ति. नपुंसकलिङ्गे
बहुवचने कानिचन उपयुज्य
नपुंसकलिङ्गे वदामश्चेत् कानिचन पादत्राणानि सन्ति. कानिचन भावचित्राणि सन्ति इति वदामः. नपुंसकलिङ्गपदम् उपयुज्य वदामश्चेत् कानिचन इति वदामः.
अनन्तरं
some, that means some. You are not mentioning how many. You wanted to say some.
Okay.
You are not specific about how many.
Okay.
नपुंसकलिङ्गपदम् उपयुज्य वदामश्चेत् कानिचन इति वदामः. यदि पुंलिङ्गं पुंलिङ्गे वदामश्चेत् केचन तथा वदामः. भवती अवगति वा, अवगतवती वा भगिनि?
आं भगिनि, अहं
वदतु. अनन्तरम् अत्र अत्र अन्यत् सीवनयन्त्रम् अत्र भावचित्रं भावचित्रम् इति पदम् उपयुज्य कानिचन वाक्यानि रचितुं वयं रचितवन्तः. अत्र किमर्थं भावचित्रम् इति वदामः इत्युक्ते अत्र केवलम् अत्र चित्रस्य दर्शनेन अस्माकं मनसि भावनाः समुपजायते. जस्ट् बै लुकिङ्ग् एट् द पिक्चर् यु आर् गोयिङ्ग् टु गेट् सम् फीलिङ्ग्स्. दट् फीलिङ्ग् इत्युक्ते भावना. तदर्थमेव अस्य नाम भावचित्रम् इति वदामः. केवलं दर्शनेन एव अस्माकं मनसि भावनाः उत्पद्यते, अतः तस्य नाम भावचित्रम्. अनन्तरं सीवनयन्त्रं, सीवनयन्त्रम् इति पदम् उपयुज्य एकं वाक्यं वदन्तु. कः कर्तुमिच्छति सीवनयन्त्रं? राजीव् सिङ्ग् महोदय, भवान् करोति वा अथवा वदतु महोदय. सीवनयन्त्रं
मम सीवनयन्त्रम्
मम सीवनयन्त्रम् उपयुज्य किं करोति भवान्? What do you do?
The soup.
अत्र वदामि, सीवनयन्त्रस्य साहाय्येन वयं वस्त्राणि सीवनयन्त्रस्य साहाय्येन सौचिकः वस्त्राणि सीव्यति. सौचिकः, सौचिकः इत्युक्ते टेलर्. सीवनयन्त्रेण वस्त्राणि सीव्यति. सीव्यति इत्युक्ते स्टिचिङ्ग्, सीव्यति. सौचिकः इत्युक्ते टेलर्. अत्र पश्यतु, सौचिकः, सौचिकः इति पदम् अस्ति. तस्मिन् पदे केवलं दन्त्यसकारः अस्ति, सौचिकः. यथा सीता, सीता इत्यस्मिन् पदे सकारः अस्ति, तस्य नाम दन्त्यसकारः. अत्रापि सीवनयन्त्रं, सीवनयन्त्रम् इत्यस्मिन् पदे अपि च सौचिकः इत्यस्मिन् पदे सकारः अस्ति, तस्य नाम अस्ति दन्त्यसकारः. सौचिकः, सौचिकः वस्त्राणि सीव्यति. वस्त्राणि सीव्यति. यदि शौचिकः अन्यत् पदमस्ति, शौचिकः इत्युक्ते तत्र अन्यत् शकारः अस्ति, तस्य नाम अस्ति तालव्यसकारः. श्री, श्री इत्यस्मिन् श्रीराम इति लिखामश्चेत् श्रीराम इत्यस्मिन् शकारः अस्ति, तस्य नाम अस्ति तालव्यशकारः. तथा एव शौचिकः, शौचिकः इत्युक्ते क्लीनर्. परन्तु सौचिकः इत्युक्ते टैलर्. सौचिकः, सौचिकः वस्त्राणि सीव्यति, शौचिकः प्रक्षालनं करोति. शौचिकः क्षालयति. प्रथमतया शौचिकः किं करोति? सः कर्तरीं स्वीकृत्य, अत्र शौचिकस्य पार्श्वे कर्तरी अस्ति. कर्तरी इत्युक्ते सिज़र्स्. कर्तर्यां वस्त्राणि कर्तयित्वा सीवनयन्त्रेण वस्त्राणि सीव्यति. कः सीव्यति?
वस्त्राणि सीव्यति.
किं सीव्यति इत्युक्ते वस्त्राणि सीव्यति. कः सीव्यति?
सीवनयन्त्रं.
किं कः सीव्यति इत्युक्ते अत्र सौचिकः.
सौचिकः सीव्यति.
सौचिकः सीव्यति. किं सीव्यति? वस्त्रं सीव्यति.
वस्त्रं सीव्यति.
सौचिकः किं करोति?
सौचिकः वस्त्रं सीव्यति.
उत्तमम् उत्तमं. वातायनम् इति पदम् उपयुज्य एकं वाक्यं वदतु. भवतः गृहे प्रकोष्ठाः सन्ति. प्रकोष्ठाः इत्युक्ते रूम्स्. भवतः गृहे प्रकोष्ठाः सन्ति. प्रत्येकस्मिन् प्रकोष्ठे वातायनानि सन्ति. भवतः प्रकोष्ठे कति वातायनानि सन्ति? इन् युवर् रूम् हौ मेनि विण्डोस् आर् देर्?
भगिनी, एकः सन्देशः सन्देहः
वदतु.
प्रकोष्ठः पदेन टकारः अल्पप्राणिटकारः वा
महाप्राण? भगिनि,
महाप्राण.
प्रकोष्ठे.
प्रकोष्ठे. धन्यवादः.
उत्तमं. भवत्याः प्रकोष्ठे कति वातायनानि सन्ति? अत्र वातायनम् वातायनम् एकवचने अस्ति. वातायनानि बहुवचने. कति वातायनानि सन्ति भवतः प्रकोष्ठे अथवा भवत्याः प्रकोष्ठे? कः वदति?
मम प्रकोष्ठे पञ्चवातायनानि सन्ति.
उत्तमम् उत्तमम्. महोदय, भवतः प्रकोष्ठे कति वातायनानि सन्ति? राजीव्सिङ्ग् महोदय, अग्रे गच्छामः. अनन्तरं कति वातायनानि सन्ति भवतः प्रकोष्ठे? हौ मेनि विण्डोस् आर् देर् इन् युवर् रूम्?
मम प्रकोष्ठे वातायनामि.
द्वे वातायनानि अत्र पश्यतु महोदय. पश्यतु अत्र भवान् द्विवचने वक्तुमिच्छति. किमर्थं चेत् भवतः प्रकोष्ठे वातायनद्वयमस्ति. यु हेव् टु विण्डोस् रैट्? अत्र द्विवचने वाक्यरचना करणीया. किमर्थं? संस्कृतभाषायाम् एकवचनम् अस्ति, द्विवचनम् अस्ति, अपि च बहुवचनमपि अस्ति. यदि एकवचने वदामश्चेत् मम प्रकोष्ठे एकं वातायनम् अस्ति. इफ् यु हेव् ओन्लि वन् विण्डो, इफ् यु हेव् मोर् विण्डोस् मोर् देन् टु, देन् यु विल् से मम प्रकोष्ठे त्रीणि वातायनानि सन्ति. यदि भवान् द्विवचने वक्तुमिच्छति चेत् मम प्रकोष्ठे द्वे वातायने स्तः. अवगच्छति वा? इत्युक्ते लास्ट् सेण्टेन्स् मम प्रकोष्ठे द्वे वातायने स्तः. इत्युक्ते वातायनम् इति पदस्य एकवचनरूपं वातायनम्, द्विवचने वातायने, बहुवचने वातायनानि. तथा एव क्रियापदमपि तत्र अस्ति इति पदम् अस्ति, अस्ति इति पदं क्रियापदं, क्रियापदम् अपि एकवचने द्विवचने बहुवचने भवति. अस्ति स्तः सन्ति, वातायनम् अस्ति, वातायने स्तः, वातायनानि सन्ति.
उत्तमं. प्रकोष्ठे द्वे वातायने सः.
उत्तमं, तथा एव. कार्याने, कार्यानमस्ति वा भवतः पार्श्वे? कार्यानमस्ति चेत् कार्याने अपि वातायनानि सन्ति. यदि वयं कार्याने गच्छामश्चेत् तदा वयं वातायनस्य द्वारम् उद्घाटनेन बहु किमपि ध्वनिः अन्तः आगच्छति. अतः वातायनद्वारं साधारणतया वयं पिधातव्यम् इत्युक्ते जनरली वि क्लोस् द कार् विण्डोस् वैल् वि आर् ट्रावेलिङ्ग्. कार्याने वातायनद्वारं पिधाय वयं यानं चालयामः. पिधातव्यम् इत्युक्ते टु बि क्लोस्ड्, कार् विण्डो डोर्स् शुड् बि क्लोस्ड् वैल् वि आर् ट्रावेलिङ्ग्. वातायनद्वारं पिधाय यानं चालयामः. उत्तमम्. अनन्तरम् अत्र जवनिका एकम् अस्ति. जवनिका इति पदम् उपयुज्य वदतु महोदय. कः करोति? समीर् महोदय, भवान् कर्तुम् इच्छति वा?
I'm sorry.
जवनिका. अत्र पश्यतु, वातायनं तदभवत्, अनन्तरं जवनिका इति पदमस्ति. जवनिका इति पदम् उपयुज्य एकं नूतनं वाक्यं वदतु. केवलम् एषा जवनिका, सा जवनिका, तद् न, अन्यत् नूतनं वाक्यं किञ्चित् ऊहां करोतु, प्रयत्नं करोतु.
जवनिका इस् कर्टन् रैट्, द विण्डो कर्टन्.
कुत्र कुत्र वयं जवनिकां पश्यामः?
भगिनी, अहं कर्तुम् इच्छामि.
करोतु भगिनि. महोदय, भवान् महोदय भवान् चिन्तयतु. भगिनी भवती वदतु.
मम गृहे जवनिकाः श्वेतवर्णेन सन्ति.
मम गृहे जवनिकाः
श्वेतवर्णे सन्ति.
श्वेतवर्णे सन्ति. उत्तमं, तत्तु उत्तमं वाक्यम्. अनन्तरं कुत्र कुत्र पश्यामः जवनिकां? Where do you find these curtains? प्रकोष्ठे अपि जवनिका अस्ति. साधारणतया वयं नाट्यशालायाम् अपि च नाट्यमन्दिरे अपि जवनिकां पश्यामः, अपि च स्नानशालायाम् अपि जवनिकाः सन्ति, अथवा प्रकोष्ठे अपि जवनिकाः सन्ति. साधारणतया यदि नाट्यशालायां जवनिका अस्ति चेत् तत्र किं भवति, कार्यक्रमस्य आरम्भे जवनिकायाः उद्घाटनं, कर्टन् रैज़र् रैट्, जवनिकायाः उद्घाटनं कृत्वा निर्वाहकाः नाट्यं दर्शयन्ति, नाट्यं वा किमपि जवनिकायाः उद्घाटनं कृत्वा नाट्यं दर्शयन्ति. जवनिका प्रकोष्ठे अपि जवनिका. वदतु महोदय.
हौ केन् ऐ मेक् अ सेण्टेन्स् लैक् ऐ हाव् डिसैन्ड् जवनिका बै मै सेल्फ्?
ऐ हाव् डिसैन्ड् जवनिका बै मै सेल्फ्. अहम् एकम् अहम् एका नूतना जवनिका निर्मितवान्.
निर्मितवान्, ओके. ओके, थैंक यू.
एका नूतना जवनिका निर्मितवान्. भवान् एव करोतु महोदय. यानपेटिका इति पदम् उपयुज्य वदतु.
मम गृहे
कति सन्ति
मम गृहे उडन् ज्ञानपीठिका अस्ति
उडन् ज्ञानपीठिका अस्ति ओके ओके
What is the equivalent word for in Sanskrit for wooden?
Vada.
I don't know.
Kashta. Tatha vadama. Sadharani wood itukte kashtam iti vadama. Parantu atra drushtva vadama anantram. Anantram sadharanate yana petikayam kim kim kani kani vastu ni sthapayamaha yana petikayam. यानपेटिकायां तस्याम् अन्ते किं स्थापयामः वस्त्राणि अपि च यानपेटिकां कानिचन वस्तूनि साधारणतया वयं स्थापयामः यदि यानपेटिकायां धनमस्ति चेत् किं कुर्मः यानपेटिकायां धनमस्ति तदा किं कुर्मः साधारणतया तस्य रक्षणं कर्तुम् उद्युक्ताः भवामः विल् टेक् विल् ट्रै टु प्रोटेक्ट् इट् रैट् नो चेत् यानपेटिकायाः हरणं भवति तस्याः चोराः यानपेटिकायाः हरणं कुर्वन्ति अत्र यानपेटिका इत्यस्ति इत्युक्ते सूट्केस् लञ्च् बाक्स् इति वदामश्चेत् किं वदामः लञ्च् बाक्स् इत्युक्ते भोजनपेटिका भोजनपेटिका इत्युक्ते लञ्च् बाक्स् अनन्तरम् अत्र निधानिका निधानिका इति पदम् उपयुज्य एकं वाक्यं वदतु महोदय
निधानिका इति शेल्फ् रैट्
शेल्फ्
मम गृहे निधानिका पुस्तक अस्ति
पुनः वदतु
मम गृहे मम गृहे निधानिका पुस्तकसङ्ग्रहः अस्ति
अत्र पश्यतु मम गृहे निधानिकायां निधानिका इति पदं स्त्रीलिङ्गपदं सप्तमी विभक्तौ निधानिकायाम् इति वदामः निधानिकायां
मम गृहे निधानिकायां
किमस्ति किं किं
पुस्तकसङ्ग्रहः महाभारतपुस्तकसङ्ग्रहः अस्ति
उत्तमम् उत्तमं मम गृहे निधानिकायां महाभारतपुस्तकसङ्ग्रहः अस्ति इत्युक्ते साधारणतया निधानिकायां पुस्तकानि वा अथवा पाञ्चालिकाः वा भावचित्राणि वा स्थापयामः धनिकानां गृहेषु निधानिकाः बहु दृश्यन्ते जनरली यु फैण्ड् मेनि इन् रिच् पीपल्स् होम्स् रैट् निधानिकायां भावचित्राणि अपि स्थापयामः निधानिका इत्युक्ते शेल्फ् अनन्तरं द्विचक्रिका द्विचक्रिका इति एकं पदमस्ति कः करोति समीर् महोदय करोति वा
मम गृहे द्वि द्विचक्रिका नास्ति
द्विचक्रिका नास्ति उत्तमं पाञ्चालिका इति पदं श्रीरम्य भगिनी भवती करोति वा श्रीरम्य पाञ्चालिका इति पदम् उपयुज्य भगिनी अस्ति वा
इति केन ऐ ट्रै
ट्रै महोदय प्रयत्नं करोतु वदतु महोदय
मम गृहे यां चालिका अस्ति
उत्तमं मम गृहे पुनः एकवारं वदतु उत्तमं वाक्यं
मम गृहे निधानिकायां पञ्चालिका स्थापयति
स्थापयामि अथवा पाञ्चालिका अस्ति एका एव पाञ्चालिका वा अथवा बह्व्यः सन्ति वा एका एव अस्ति वा अथवा बह्व्यः सन्ति वा Do you have only one or many?
If you say many, then what is the plural of panchalika?
Mama grihe nidhanikayam bahvyaha panchalikaha santi.
Panchalikaha is plural of panchalika.
Akarantapadam.
Madam, ek prashna asti.
Vadat mahadeya.
When you say nidhanikayam, it means in, on, on the shelf?
In the shelf.
Nidhanikayam, yam.
In the shelf.
In the
shelf. On the, if you want to say on the, nidhanikayah upari, nidhanikayah adhaha, okay. On the top, on the in the bottom. If you want to say like that, nidhanikayah upari, nidhanikayah adhaha, tadhavadamaha. Yadi nidhanikayam, ichukte, in the shelf.
Dhanyavad.
Anantram. Panchalika ichukte, doll. Yadi toy, toy itvadamaschet, toy ichukte, kridanakam itvadamaha. Panchalika ichukte doll. Kridanakam ichukte toy. Tayor madhye bheda hasti. You know the difference. Toy and doll. Atra, America deshe, balyakale, balikaha sadharanataya, Barbie panchalikaya saha, kriditum ichhanti. Barbie doll. Yadi balakaha santi chete, केन् पाञ्चालिकया सह क्रीडितुमिच्छन्ति बालकाः यदि बालिका अस्ति चेत् बार्बि पाञ्चालिकया सह शैशवे इत्युक्ते बाल्यकाले बालिकाः क्रीडितुमिच्छन्ति अनन्तरम् अत्र मापिका इति पदमस्ति मापिका इति पदम् उपयुज्य वदन्तु शीघ्रं कुर्मः वदतु महोदय
मापिका उपयुज्य मापनं
कुर्मः
मापनं
इत्युक्ते यदि वयं पाठशालायां गणितशास्त्रं पठितवन्तः स्म तदा गणितशास्त्राध्ययनं तस्मिन् समये अध्ययनसमये वयं मापिकाम् उपयुज्य मापनं कुर्मः अनन्तरं माला माला इति पदम् उपयुज्य एकं वाक्यं वदतु कर्तुं शक्नोति भवान् वदतु
एषा सुन्दरमाला
एषा
सुन्दरमाला
सुन्दरी माला
सुन्दरी
एषा सुन्दरी माला सुन्दरशब्दं सुन्दरशब्दः विशेषणं सुन्दर इति पदं विशेषणं तदर्थं यदि पुंलिङ्गे वदामश्चेत् सुन्दरः बालकः इति वदामः यदि स्त्रीलिङ्गे वदामश्चेत् सुन्दरी बालिका सुन्दरी माला सुन्दरी जवनिका सुन्दरी पाञ्चालिका तथा वदामः यदि नपुंसकलिङ्गे वदामश्चेत् सुन्दरं वातायनं सुन्दरं सुन्दरं पुष्पं सुन्दरं भावचित्रं तथा वदामः तत्र सुन्दरशब्दः विशेषणत्वेन तस्य उपयोगः भवति अत्र सुन्दरी माला एषा सुन्दरी माला अनन्तरं पुष्पाधानि इति पदम् उपयुज्य अन्यत् वाक्यं वदतु पुष्पाधानि इत्युक्ते
पुष्पाधानि एषा सुन्दरी पुष्पाधानि
उत्तमम् उत्तमम् एषा अथवा साधारणतया पुष्पाधान्यां पुष्पगुच्छान् स्थापयामः पुष्पाधान्याः निर्माणं पुष्पाधान्याः निर्माणं केन भवति हौ डु विच् मेटीरियल् इट्स् मेड् आफ् जनरली इट्स् मेड् आफ् ग्लास् तदा किं वदामः साधारणतया पुष्पाधानि के काचकलशेन भवति काचकलशः इत्युक्ते ग्लास् काचकलशः वदतु महोदय काचकलशः इत्युक्ते ग्लास्
साधारणतः पुष्पाधानि
पुष्पाधान्याः निर्माणं पुष्पाधानि प्रथमाविभक्ति धान्याः निर्माणं काचकलशेन भवति केन भवति काचकलशेन भवति अनन्तरं दूरवाणी अत्र दूरवाणी अस्ति दूरवाणी इति पदम् उपयुज्य एकं वाक्यं
भगिनी मम कर्तुम् इच्छा
करोतु भगिनी करोतु
अहं दूरवाणी उपयुज्य आत्मीयस्य क्षेमसमाचारं प्राप्तवती
दूरवाणीं तत्र वाणीं द्वितीयविभक्तौ तस्य
दूरवाणीम् उपयुज्य
अथवा अहं अत्र पश्यतु भगिनि दूरवाणीम् उपयुज्य तदपि समीचीनम् अथवा दूरवाण्या सम्भाषणं करोति दूरवाण्या तृतीयविभक्तिः दूरवाणी ईकारान्तपदं दूरवाणी इति पदस्य तृतीयविभक्तिरूपं दूरवाण्या
दूरवाण्या
मम दूरवाण्या सम्भाषणं करोमि
मम दूरवाण्या सम्भाषणं करोमि
यदि भवती दूरवाण्याः संख्या ज्ञातुमिच्छति चेत् भवतः दूरवाण्याः संख्या का अथवा भवत्याः दूरवाणी संख्या का इफ् यु वाण्ट् टु नो द टेलिफोन् नम्बर् आफ् अदर् पर्सन् पुंलिङ्गे वदामश्चेत् वदतु भगिनि पुंलिङ्गे किं वदामः
भवतः दूरवाण्याः संख्या किं
संख्या किमर्थं संख्या इति पदम् आकारान्तपदं
स्त्री
संख्या का यदि महिलां उद्देश्य वदति चेत् भवती करोतु
भवत्याः दूरवाण्यां संख्या का
भवत्याः दूरवाणी संख्या का अथवा भवत्याः दूरवाण्याः संख्या का अनन्तरं कर्तरी अपि करोतु कर्तरीम् उपयुज्य किं कुर्मः
अहं कर्तरी उपयुज्य वस्त्रं
कर्तयामि
वस्त्रं कर्तयामि. अहं कर्तरी उपयुज्य वस्त्रं कर्तयामि.
पुनः कर्तरीम्.
अहं कर्तरीम् उपयुज्य वस्त्रं कर्तयामि.
अथवा यु केन् से दट् इन् अ डिफरेण्ट् वे. कर्तर्या वस्त्राणि कर्तयामि. तदपि समीचीनं. दट् मीन्स् यु केन् एक्स्प्लेन् इट् इन् टु डिफरेण्ट् वेस्. कर्तर्या वस्त्राणि कर्तयामि. कर्तर्या तृतीयाविभक्ति. कर्तरीं द्वितीयाविभक्तिरूपं. बट् यु केन् एक्स्प्लेन् द सेम् इन् टु डिफरेण्ट् वेस्. अवगतं वा भगिनि? अधुना वयं किं कुर्मः? उत्तमम्. अनन्तरम् अत्र यस्य कस्यापि क्रमः न आगतः वा इदानीं पर्यन्तं? डिड् एनिबडि गेट् एनी आफ् यू डिड् नाट् गेट् ए चान्स् टु एक्स्प्लेन्? लक्ष्मी भगिनी, भवती करोति वा? अग्रिमे पुटे किम् अस्ति?
द नेक्स्ट् पेज्.
आं भगिनि,
अत्र
सप्तमे पुटे.
चित्रं दृष्ट्वा अस्ति अथवा नास्ति इति लिखतु. पुस्तकम् अस्ति. घटी
भगिनि, अत्र पश्यतु. अत्र एकं चित्रमस्ति, अनन्तरम् उत्पीठिका अस्ति. अत्र उत्पीठिकायाः उपरि कानिचन वस्तूनि सन्ति. प्रथमं भवती चित्रं पश्यतु, चित्रं परिशीलयतु, अनन्तरं तत्र किम् अस्ति किं नास्ति इति वदतु. अत्र पुस्तकम् अस्ति वा?
पुस्तकम् अस्ति.
अनन्तरं
घटी अस्ति.
उपनेत्रम्?
उपनेत्रं नास्ति.
लेखनी?
लेखनी अस्ति.
दूरवाणी
अस्ति.
वदतु अनन्तरं.
विद्युद्दीपः नास्ति. पुष्पं नास्ति. सङ्गणकमित्युक्ते
कम्प्यूटर्
अस्ति. चषकः नास्ति.
चषकः नास्ति. चषकः नास्ति वा? अत्र पश्यतु, चषकः इत्युक्ते ग्लास्.
ग्लासस्?
कप्. कप् आर् ग्लास्.
ओके. अस्ति. चषकः अस्ति. पत्रिका नास्ति.
पत्रिका. एकवारं पश्यतु, तत्र पुस्तकमस्ति परन्तु पत्रिका नास्ति.
पत्रिका नास्ति.
ओके. अनन्तरम् अहं पृच्छामि, सम्यक् रीत्या परिशीलयतु, अनन्तरम् उत्तरं वदतु. अत्र दन्तकूर्चः अस्ति वा? दन्तकूर्चः इत्युक्ते ब्रश्.
दन्तकूर्चः नास्ति.
पत्राणि वा अथवा पर्णानि वा सन्ति वा तत्र?
पत्राणि नास्ति.
पत्राणि न सन्ति.
न सन्ति.
पर्णानि न सन्ति.
पर्णानि न सन्ति.
उत्पीठिकायां मापिका अस्ति वा?
उत्पीठिका मापिका नास्ति.
अत्र दूरवाणी अस्ति परन्तु चरवाणी अस्ति वा?
चरवाणी नास्ति.
चरवाणी इत्युक्ते? चरवाणी इत्युक्ते मोबैल् फोन्.
ओके.
दूरवाणी इत्युक्ते
टेलिफोन्.
चरवाणी इत्युक्ते मोबैल्. अत्र अङ्कनी, अत्र लेखनी अस्ति परन्तु अङ्कनी अस्ति वा? लेखनी इत्युक्ते
पेन्.
अङ्कनी इत्युक्ते
पेन्सिल् मेबि.
उत्तमम्. अङ्कनी इत्युक्ते पेन्सिल्. भवती उत्पीठिकां पश्यति वा? उत्पीठिका अस्ति अत्र.
उत्पीठिका अस्ति.
अस्ति. आसन्दः अस्ति वा?
आसन्दः नास्ति. अस्ति.
आसन्दः अस्ति. अनन्तरम् अहम् एकं नूतनं पदं वदामि अत्र. कीलफलकं. कीलफलकम् अस्ति वा? कीलफलकम् इत्युक्ते कीबोर्ड्.
कीलफलकम् अस्ति.
उत्तमम्. इदानीं पर्यन्तं वयम् अस्ति नास्ति इति पदानां पदद्वयं वयं जानीमः. अनन्तरम् अत्र एका कथा अस्ति. अहम् एकां कथां प्रेषितवती. अधुना किञ्चित् पश्यामः कथा का इति. सर्वेषां पार्श्वे कथा अस्ति वा?
अस्ति
भगिनि.
प्रथमपरिच्छेदः कः? प्रथमपरिच्छेदम् इत्युक्ते फस्ट् पेराग्राफ् कः पठितुमिच्छति?
I can do that.
करोतु महोदय.
This is Samir here. कथा. कथा अस्ति नास्ति. एकः धनिकः, तस्य विशालगृहं.
विशालं.
विशालं गृहम्. उपारम् ऐश्वर्यम्. अपारम् ऐश्वर्यं. किन्तु सुखं नास्ति. सर्वदा चिन्ता. तस्य गृहस्य पार्श्वे एकस्य निर्धनस्य कुटीरम्.
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 कुटीरं
जीर्णम्. निर्धनस्य गृहे धनं नास्ति. प्रतिदिनं भोजनं नास्ति.
भवान् अवगतवान् वा महोदय?
I'm sorry.
भवान् अवगतवान् वा इत्युक्ते अवगतं वा? डिड् यु अण्डर्स्टाण्ड्? पुनः एकवारं वदतु, पठतु तदेव. यदि भवान् कर्तुं शक्नोति चेत्, इफ् यु केन् एक्स्प्लेन् इन् युवर् ओन् वर्ड्स्, that is wonderful. Or else just to read it to understand better. Bhavan avagatavan. Aham api avagatavati. Punah ekvaram pathatu.
Okay. Ekam dhanikam, tasya vishalam graham.
Ekah dhanikah.
Ekah dhanikah, tasya vishalam graham.
Vishalam. Vishalam ichukte जानाति वा?
विशालं. बेग्.
बेग्. एकः धनिकः, तस्य विशालं गृहमस्ति. अनन्तरम्
अपारम् ऐश्वर्यम्.
अपारम् ऐश्वर्यम्. अपारम् इत्युक्ते
लाट् आफ् मनी.
लाट् आफ्. अपारम् इत्युक्ते पारम् इत्युक्ते देर् इस् अ बौण्डरि. अपारम् इत्युक्ते बौण्ड्लेस्.
बौण्ड्लेस्.
Not having any shore. Aparam. Aparam, Aishwaryam. Aishwaryam is
unlimited.
Aparam, unlimited. Aishwaryam is chukte Ishwarasya bhavam. Wealth. Aishwaryam is chukte Sampattihi. Aishwaryam. Ishwarasya bhavam, Aishwaryam. Iti vadamaha. Ishwarena dattam. Sarvam. Aishwaryam. ऐश्वर्यम् इत्युक्ते केवलं धनं नास्ति. ऐश्वर्यम् इत्युक्ते सम्पत्तिः, अपि च सुखं, शान्तिः, आनन्दम्. एते सर्वे अपि ऐश्वर्यमेव, केवलं धनं न. अपारम् ऐश्वर्यं. धनिकस्य पार्श्वे अपारम् ऐश्वर्यम् अस्ति. परन्तु अन्य अग्रिमं वाक्यं पठतु महोदय.
किन्तु सुखं नास्ति. सर्वदा चिन्ता.
सर्वदा चिन्ता.
तस्य गृहस्य पार्श्वे एकस्य निर्धनस्य कुटीरम्.
तस्य गृहस्य अत्र पश्यतु महोदय. तस्य गृहस्य पार्श्वे एकस्य निर्धनस्य कुटीरम्. अत्र पश्यतु. तस्य गृहस्य एकस्य निर्धनस्य एतानि चत्वारि पदानि षष्टिविभक्तौ सन्ति. धनिकस्य गृहस्य पार्श्वे एकः निर्धनः वसति. अवगच्छति वा? अनन्तरं धनिकस्य गृहस्य पार्श्वे एकः निर्धनः वसति. अनन्तरं तस्य कुटीरमस्ति, जीर्णं कुटीरं. जीर्णमित्युक्ते
नाट् इन् अ गुड् कण्डीशन्.
उत्तमं. नूतनं नास्ति, भ्रष्टम् अभवत्, जीर्णम् अभवत्. कुटीरं जीर्णम्. अन्यथा अनन्तरम् अग्रिमं पठतु.
निर्धनस्य गृहे धनं नास्ति. प्रतिदिनं भोजनं नास्ति.
प्रतिदिनं भोजनं नास्ति. द्वितीयपरिच्छेदः कः पठितुमिच्छति? वदतु हस्मुख् महोदय, भवान् पठतु द्वितीयपरिच्छेदः.
एकः मध्याह्नः निर्धनस्य भोजनं नास्ति. तथापि सः सन्तोषेण गायति. एतत् धनिकः पश्यति. सः पृच्छति, भवतः धनं नास्ति, भोजनं नास्ति, तथापि सन्तोषः अस्ति. मम धनम् अस्ति, ऐश्वर्यमस्ति, तथापि सन्तोषः नास्ति. एतत् किमर्थम् इति.
उत्तमं. भवान् अवगतवान् वा? वेरि क्लियर्. द्वितीयपरिच्छेदे किमस्ति भवान् स्वस्य वाक्यैः वक्तुं शक्नोति वा? केन् यु ट्रै टु एक्स्प्लेन् इन् युर् ओन् वर्ड्स् रिगार्डिङ्ग् दिस् सेकेण्ड् पेराग्राफ्? एकः
Poor man did not have any bhojan also, and still was singing happily. And that was seen by the dhanik person who was staying next to him.
Dhanikaha pashyati.
Dhanikaha pashyati, so he saw him, and he asked him that even if you don't have dhana, and you don't have bhojan also, and still you have got so much of santosa, I have all the dhana and I've got aishwaryam also, and still santosh is not there. So why so?
Why is like that?
It's a kimartham. So what does this mean?
Atra ekaha madhyanaha nirdhanasya bhojanam nasti tadhapi saha santoshena gayati. Etat dhanikaha pashyati. Saha pruchyati. भवतः धनं नास्ति, भोजनं नास्ति, तथापि सन्तोषः अस्ति. मम पार्श्वे धनमस्ति, ऐश्वर्यमस्ति, परन्तु सन्तोषः नास्ति. एतत् किमर्थम् इति धनिकः निर्धनं पृच्छति. तदा निर्धनः किं वदति?
निर्धनः वदति, महोदय, एकः वसन्तकालः, सर्वत्र सौन्दर्यम्. तत् पश्यामि, गायामि, यत् अस्ति तत् अहं पश्यामि, अतः सन्तोषेण गायामि. भवान् यत् नास्ति तत् पश्यति, अतः सर्वदा चिन्ता करोति इति.
चिन्तां करोति. वदतु महोदय.
चिन्तां करोति. सो द मीनिङ्ग् इस् दट् हि सेज़् this is a spring season and everywhere there is beauty, and I only see this, and that's why I'm singing. And I only see what is, and that's why I'm having satisfaction, while you seem to be seeing what is not there, and that's why you are always worried.
Uttamam, Mahodaya. Sundarupena Uttavan, Bhavan. Tadeva asti atra. Yada dhanikaha nirdhanam pruchyati tada nirdhanaha uttram vadati mahodaya yeshaha vasantakalaha vasantakalaha ichukte vasantakale nutanani pushpani vikasanti shakhayam pallavaha utpadyante latasu pushpani vikasanti kokilaha kujanti sarvatra saundaryam सौन्दर्यम् एव दृश्यते तदेव वसन्तकालसौन्दर्यम् अधुना अहं वसन्तकालसौन्दर्यं पश्यामि वसन्तकाले सर्वत्र सौन्दर्यं दृश्यते अहं तत् पश्यामि तदर्थमेव अहं गायामि अहं यत् अस्ति तत् अहं पश्यामि अतः सन्तोषेण गायामि परन्तु भवान् यत् नास्ति तत् पश्यति अतः सर्वदा चिन्तां करोति इति उत्तरं दत्तवान् निर्धनः अहं चिन्तयामि भवन्तः सर्वे अवगतवन्तः कथायाः नीतिः का इत्युक्ते कथायाः नीतिः का कः वक्तुमिच्छति What is the moral
enjoy in this? Enjoy what you have or be in the present.
Be in the present. Tadatthameva atra sirshika asti, asti, nasti. Asmakam parshe yat asti tad drushtva vayam santoshena jivitam shaknumaha. Anantaram atra किञ्चित् अग्रिमम् अधोभागे अस्मिन् पुटे एव अधोभागे एकं नूतनम् अभ्यासं पश्येम कः करोति अधोभागे सप्तमे पुटे एव
भगिनी अहं
करोतु भगिनी भगिनी उदाहरणं दृष्ट्वा करोति वा
उदाहरणं दृष्ट्वा चित्रस्य अधः स्थितं रिक्तं स्थानं पूरयतु
पुनः एकवारं सूचनां पठतु
उदाहरणं दृष्ट्वा चित्रस्य अधः स्थितं रिक्तं स्थानं पूरयतु
अत्र पश्यतु भगिनि चित्रस्य अधः अत्र अधः इति पदमस्ति अधः इति पदम् अव्ययम् इति वदामः चित्रस्य इति षष्टिविभक्तेः रूपं रिक्तं स्थानं पूरयतु इत्युक्ते किम् उदाहरणं दृष्ट्वा अत्र उदाहरणत्वेन एकं वाक्यं दत्तमस्ति उदाहरणं दृष्ट्वा चित्रस्य अधः स्थितं रिक्तस्थानं पूरयतु अत्र उदाहरणत्वेन किं दत्तमस्ति भवती एव पठतु
सस्यम् अत्र अस्ति
अत्र अस्ति अत्र अस्ति इत्युक्ते कुत्र अस्ति
समीपे अस्ति
यदि समीपे अस्ति चेत् अत्र अस्ति इति वदामः अत्र प्रथमे चित्रे सस्यम् अस्माकं समीपे अस्ति अथवा तस्य समीपे अस्ति अतः सस्यम् अत्र अस्ति इति वदामः यदि सस्यं दूरे अस्ति चेत्
सस्यं तत्र अस्ति
द्वितीयं करोतु
वृक्षः तत्र अस्ति
वृक्षः कुत्र अस्ति
वृक्षः तत्र अस्ति
तत्र अस्ति तत्र इत्युक्ते
अदूरे अस्ति चेत् तत्र शब्दः उपयुज्य
दूरे अस्ति चेत् तत् अस्मिन् चित्रे वृक्षः दूरे अस्ति, अतः वृक्षः तत्र अस्ति इति वदामः. यदि समीपे अस्ति चेत्
वृक्षः तत् अत्र अस्ति,
वृक्षः अत्र अस्ति. तृतीयं करोतु अधोभागे.
कार्यानम् अत्र अस्ति, देवालयः तत्र अस्ति.
देवालयः तत्र अस्ति इत्युक्ते यदि यदि अस्माकं समीपे अस्ति चेत् अत्र अस्ति इति वदामः, यदि दूरे अस्ति चेत् तत्र अस्ति इति वदामः. यदि प्रश्नार्थकपदम् उपयुज्य वदामश्चेत् कुत्र अस्ति इति वदामः. अग्रिमं पुटं प्रति गच्छेम. अत्र अष्टमे पुटे तत्र किमस्ति भवती एव करोतु.
I can do that.
करोतु महोदय. उत्तमं करोतु महोदय.
वायु सर्वत्र अस्ति, देवः सर्वत्र अस्ति.
सत्यं किल, वायुः सर्वत्र अस्ति, देवः सर्वत्र अस्ति. अन्ये के सर्वत्र सन्ति इत्युक्ते सर्वत्र किं किं वयं द्रष्टुं शक्नुमः? वाट् एल्स् वी केन् सी एव्रिवेर्? किं किं वयं पश्यामः सर्वत्र? वायुं विहाय, देवं विहाय, एक्स्क्लूडिङ्ग् दीस् टु, वाट् एल्स् यू केन् फैण्ड् एव्रिवेर्? वायुः सर्वत्र. उत्तमं. नाट् पीपल्, वायुः. वायुः वदतु महोदय.
सूर्यप्रकाशः.
सूर्यप्रकाशः. उत्तमम् उत्तमं. वायुः सर्वत्र अस्ति, देवः सर्वत्र अस्ति, तथा एव अत्र आकाशः सर्वत्र अस्ति. आकाशः सर्वत्र अस्ति. अपि च जलं, जलं सर्वत्र अस्ति तथा वदामः. भूमिः,
भूमिः सर्वत्र.
अपि च अग्निः अथवा तेजस् अस्ति. अपि च वायुः. एतानि पञ्चभूतानि,
पञ्चभूतानि सर्वत्र अस्ति.
सर्वत्र एतेषां पञ्चभूतानां सम्मेलनं, सम्मेलनमित्युक्ते सम्यक् मेलनम्, एतेषां पञ्चभूतानां सम्मेलनम् एव अस्माकं प्रपञ्चम्, अस्माकं प्रपञ्चं पञ्चभूतानां सम्मेलनं. पञ्चभूतानि सर्वत्र सन्ति, वायुः तथा वायुः सर्वत्र अस्ति, तथा देवः सर्वत्र अस्ति इति वयं जानीमः. यदि एकस्य मरणम् अभवत् इत्युक्ते एकः मृतः भवति चेत् तदा वयं वदामः सः पञ्चत्वं गतः इति वदामः. इफ् एनिबडि डैस् नो देन् वी से इन् संस्कृत् सः पञ्चत्वं गतः इत्युक्ते तस्य शरीरं पञ्चभूतेषु मिश्रितम् अभवत् इति अर्थः. अत्र सर्व फैव् एलिमेण्ट्स्, पञ्चभूतानि. अत्र सर्वत्र इति नूतनं पदम्. अनन्तरं कः करोति? मम मित्रं तत् तद्वाक्यं.
मम मित्रम् अन्यत्र अस्ति, समवेर.
भवतः मित्रं कुत्र अस्ति महोदय?
मम मित्रम् अन्यत्र अस्ति.
भवतः पिता कुत्र अस्ति?
पिता अन्यत्र अस्ति.
भवतः माता कुत्र अस्ति?
माता अन्यत्र अस्ति.
भवतः पुत्रः वा अथवा पुत्री वा कुत्र अस्ति?
मम पुत्रः, मम पुत्री अन्यत्र अस्ति.
भवतः कारयानं कुत्र अस्ति? किमपि अन्यत्र अन्यत्र तथा एव भवन्तः सर्वे अपि अन्यत्र सन्ति, परन्तु अहम् अत्र अस्मि. ऐ एम् हियर् बट् यु आर् आल् देर् रैट्. अहम् अत्र अस्मि, भवन्तः सर्वे अन्यत्र सन्ति. अन्यत्र अन्यत्र इत्युक्ते संवेर्. अनन्तरम् अत्र सर्वत्र इति वयं जानीमः, अन्यत्र अपि वयं जानीमः. अत्र भवतः पार्श्वे पुस्तकमस्ति वा? महोदय
पुस्तक अत्र अस्ति.
पुस्तकम्
अत्र अस्ति.
पुस्तकम् अत्र अस्ति. सङ्गणकमस्ति वा? मम पार्श्वे अहं वदामि, मम पार्श्वे अत्र पुस्तकमस्ति, अत्र मम पार्श्वे सङ्गणकमस्ति, मम पार्श्वे इत्युक्ते अत्र दूरवाणी अस्ति, द्वारमस्ति, आसन्दः अस्ति, अत्र अत्र एका उत्पीठिका अपि अस्ति. अत्र अत्र इत्युक्ते मम पार्श्वे. यदि दूरे अस्ति चेत् तत्र इति वदामः. यदि प्रश्नवाचकपदम् उपयुज्य वदामश्चेत् कुत्र अस्ति? अत्र एकम् अन्यत् पदमस्ति, एकत्र. एकत्र इत्युक्ते किम्?
ओन्लि वन्
इद एकत्र इत्युक्ते एकस्मिन् प्रदेशे, एकस्मिन् स्थले. इत्युक्ते वयं सर्वे अधुना संस्कृतपठनार्थम् एकत्र स्मः. वेर् आल् टुगेदर् फर् स्टडिङ्ग् संस्कृत. वयं सर्वे अधुना संस्कृतपठनार्थम् एकत्र उपविश्य पठामः. अथवा अन्यत् वाक्यमपि रचयितुं शक्नुमः. यथा यदा कदापि वयम् अस्माकं वस्तूनि गृहे एकत्र स्थापयित्वा अन्यत्र अन्वेषणं कुर्मः. समटैम्स् नो वी कीप् द थिङ्ग्स् एट् वन् प्लेस् अण्ड् विल् सर्च् समवेर्. एकत्र अस्माकं वस्तूनि एकत्र स्थापयित्वा गृहे अन्यत्र वयम् अन्वेषणं कुर्मः. तथा भवति किल यदा कदापि? इट् हेपन् सम्टैम्स् रैट्. तथा एकत्र अत्र षट् पदानि सन्ति, अत्र, तत्र, कुत्र, सर्वत्र, अन्यत्र, एकत्र. अधुना समापयामः. भवन्तः सर्वे गृहपाठरूपेण अत्र कोष्टकम् उपयुज्य कोष्टकस्य आधारेण वाक्यानि लिखन्तु गृहपाठरूपेण. अधुना कालातीतः अभवत्, अधुना समापयामः. धन्यवादाः सर्वेषां. नमस्कारः.
धन्यवादः.
धन्यवादः.
धन्यवादः भगिनी. नमस्कारः.
धन्यवादः.
धन्यवादः.